하산에 어깨를 흔들어 야 나나
पिछले सात दिनों में ये सब है खोया।